श्री भगवत्याः कीलकस्तोत्रम् श्री गणेशाय नमः। अस्य श्री कीलक मंत्रस्य शिवऋषिः अनुष्टुप छंद श्री महासरस्वती देवता श्री जगदम्बा प्रीत्यर्थ सप्तशती पाठांग जप विनियोगः। ओम नमः चंडिकायै मार्कंडेय उवाच। विशुद्ध ज्ञान देहाय त्रिवेदी दिव्य चक्षुषे श्रेय प्राप्ति निमित्ताय नमः सोमार्थ धारिणे। सर्वमेतद्विनायस्तु मन्त्राणामपि कीलकम् सोऽपि क्षेमम् वाप्नोति सततम् जाप्य तत्परः। सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेन स्तुवतां नित्यं स्तोत्रमात्रेण सिद्ध्यति। न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्। समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हर कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्। स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकारस समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणां सोऽपि क्षेममवाप्नोति सर्वमेव न संशय। कृष्णायां वा चतुर्दश्यामष्टम्या वा समाहित ददाति प्रतिगुह्याति नान्यथैषा प्रसीदति। इत्थं रूपेण कीलेन महादेवेन कीलितम् यो निष्कीलां विधायैनां नित्यं जपति सुस्फुटं ससिद्ध सगणसोऽपि गन्धर्वो जायते वने। न चैवाप्य ततस्तस्य भयं क्वापि हि जायते नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्। ज्ञात्वा प्रारभ्य कुर्वीत य कुर्वाणो विनश्यन्ति ततो ज्ञात्वैव सम्पन्नम् इदं प्रारभ्यते बुधै। सौभाग्यादि च यत्किञ्चित् दृश्यते ललनाजने तत्सर्वं त्वत्प्रसादेन तेन जाप्यमिदं शुभम्। शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यं यत्प्रसादेन सौभाग्यारोगसम्पदा। शत्रुहानि परो मोक्ष स्तूयते सानव्यञ्जने। इति श्रीकीलकस्तोत्रं सम्पूर्णम्।